एथिर आयुष्कामः प्रजापसकामो वा पुरस्थादसहोतारं मुदञ्च उपतदधियावत्पदम् यदघं गजोषि पत्न्यौ च दक्षिणदप्राञ्चगं चतुर्होतारं पश्चात् उदन्तं पञ्चहोतारम् उत्तरदप्राञ्चगं षड्होतारम् उपरिष्टात् प्राञ्चगं सप्तहोतारम् हृदयं गजोगुंषि पत्न्यौ च यदावकाशं गृहाण् यदावकाशं प्रतिगृहान् लोकान् घृणाच्च तस्मासैथा देवता प्रीता अभीष्टा भवन्ति रोचनो रोचमानसोभनसोभमानकल्याणः।